દિવસ આખો ઉત્સાહપૂર્વક કામ કરી સાંજે થાક્યો પાક્યો પ્રભુ પાસે જતા તે અનુભવે છે પોતાની શક્તિ મર્યાદા અને અસામર્થ્ય. ત્યારે પોતાનો અભિનય કાઢવા તે નમ્ર બની પ્રભુને પ્રાર્થે છે, હે વિષ્ણુ અભિનયમ અપનયા.
Thank you.
वर्चसी जायता आस्मिन् राष्ट्रे राजन्य इषव्यशूरो महारथो जायता दोग्धृर्धेनुर्वोढा नढवानाशुस्सक्तिः पुरन्ध्रिर्योषा जिष्णुरथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् निकामे निकामेन पर्जन्यो वर्षतु फलिन्यो न ओषधयः पच्यन्ताम् योगक्षेमो नः कल्पताम् समानीव आकूतिः समानार्दयानिवः समानमस्तु वो मनः यथावस्सु सहासति सर्वेत्र सुखिनः सन्तु सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाप्नुयात् ॐ शान्ति शान्ति शान्तिः ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॐ देव्यै ब्रह्माण्यै विद्महे महाशक्त्यै च धीमहि तन्नो देवी प्रचोदयात् ॐ महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात्